इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी सूचितवान् यत् 25,000,000 प्रारूपगताङ्ककीय वैयक्तिक दत्तांश संरक्षण नियमः नागरिक केन्द्रित शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यं प्रददाति। गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां केन्द्रीयान्वेषण विभागद्वारा विकसितस्य निर्मितस्य च भारत पोल इत्यभिनामधेयकस्य आन्तर्जालिकपटलस्य शुभारम्भं कृतवान्। निर्वाचनायोगेन समुद्घोषितं यत् दिल्ली विधानसभा निर्वाचनं एकस्मिन्नेव चरणे फरवरी मासस्य पञ्चमे दिनांके समनुष्ठास्यते, तत्रैव मतगणना अष्टमे दिनांके निर्धारितास्ति। अपि च नेपाल तिब्बतयोः सिम्नि 7.1 तीव्रस्तरीयेन भूकम्पेन 95 जनाः मृत्युम् उपगताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी सूचितवान् यत् 25,000,000 प्रारूपगताङ्ककीय वैयक्तिक दत्तांश संरक्षण नियमः नागरिक केन्द्रित शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यं प्रददाति। सूचना प्रसारण मन्त्रिणः अश्विनी वैष्णवस्य सन्देशस्य प्रत्युत्तरे श्रीमोदी अवधानं दत्तवान् यत् नियमानाम् उद्देश्यं वैयक्तिक दत्तांशस्य रक्षणं भवति तथा च विकासस्य समावेशस्य च प्रोत्साहनं भवति इति। गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां केन्द्रीयान्वेषण विभागद्वारा विकसितस्य भारत पोल इत्यभिनामधेयकस्य आन्तर्जालिक पटलस्य शुभारम्भं कृतवान्। अस्य भारत पोल इत्याख्यस्य पटलस्योद्देश्यम् इंटरपोल इत्यनेन माध्यमेन अन्ताराष्ट्रिय सहायतायै सर्वेषु अनुरोधेषु कार्याचरणं सुव्यवस्थितं करणमिति वर्तते, यस्मिन् रेड नोटिस इति सम्बद्धानि नैकानि प्रतिवेदनानि समाविष्टानि सन्ति इति। अत्रावसरे गृहमन्त्री अमितशाहः स्वीयोद्बोधने अकथयत् भारतपोल इति अन्ताराष्ट्रियस्तरीयं निरीक्षणं नवीनं युगं प्रति नेष्यति। असौ पुनः न्यगादीत् यत् साम्प्रतम् अन्वेषणविभागाः आवश्यकसूचनाः प्राप्तुम् इंटरपोल इत्यनेन संघटनेन संयोजिताः भवितुं शक्नुवन्ति। श्रीशाहः अग्रे अवोचत् यत् अनेन पदक्षेपेण आतंकवादसम्बद्धेभ्यः अपराधेभ्यः मादकपदार्थेभ्यः इत्यादिभ्यः प्रसंगेभ्यः निवारणं मेलिष्यति।
सबसे बड़ा फायदा अंतरराष्ट्रीय डेटा के उपयोग के बारे में। 19 प्रकार के डेटाबेस जो इंटरपोल के हैं, वो आज हमारे पास उपलब्ध होंगे। एनालिसिस कर क्राइम रोकने की हमारी सिस्टम खड़ी करने के लिए भी उपलब्ध होंगे और अपराधियों को पकड़ने के लिए भी उपलब्ध होंगे और साइबर अपराध की नई चुनौतियों को भी एक स्पीड के साथ इससे हम आगे ले जा सकते हैं।
अत्रावधौ गृहमन्त्रिणा प्रोदीरितं यत् अधुना आधुनिकप्रणालीनाम् उपयोगद्वारा विदेशेषु निवसन्तः अपराधिनः भारते च अपराधान् कृत्वा विदेशान् प्रति गतान् अपराधिनः प्रत्यानेतुं सरलता भविष्यति।
भारत पोल हमारे देश के अंतरराष्ट्रीय इन्वेस्टिगेशन को एक अलग युग में ले जाने वाली एक शुरुआत है। एक प्रकार से अब तक इंटरपोल के साथ काम करने के लिए एक ही एजेंसी नामित थी, सीबीआई, मगर भारत पोल की संरचना होने के साथ भारत की हर एजेंसी, हर राज्य की पुलिस अपने आप को बहुत सरलता के साथ इंटरपोल के साथ कनेक्ट कर पाएगी और सीधा गति अपने इन्वेस्टिगेशन को देने में उनको बहुत सहायता होगी।
अपरत्र श्री शाहः 35 संख्यकेभ्यः केन्द्रीयान्वेषण विभागीयेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च आरक्षिपदकानि प्रदत्तवान्। एतेभ्यः पदकलब्धेभ्यः जनेभ्यः विशिष्टसेवायै राष्ट्रपतेः आरक्षिपदकानि अपि च निरीक्षणकार्ये उत्कृष्टतायै केन्द्रीयगृहमन्त्रिणः पदकानि प्राप्तानि। दिल्ली विधानसभा निर्वाचनम् एकस्मिन्नेव चरणे फरवरी मासस्य पञ्चमे दिनांके समनुष्ठास्यते, तत्रैव मतगणना अष्टमे दिनांके निर्धारितास्ति। निर्वाचनायोगेन अद्य 70 सदस्ययुतायाः दिल्ली विधानसभा दिल्ली विधानसभायाः निर्वाचनाय समुद्घोषणा कृता। अद्य नवदिल्ल्यां वार्ताहरान् संसूचयन् मुख्यनिर्वाचनायुक्तः राजीवकुमारः अकथयत् यत् सम्बद्धाधिसूचना अस्य मासस्य दशमे दिनांके प्रख्यापयिष्यते। मुख्यनिर्वाचनायुक्तेन ईवीएम यन्त्रसम्बद्धान् आरोपान् अपि निराकृताः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। अद्य प्रातःकाले नेपाल तिब्बतयोः सिम्नि 7.1 तीव्रस्तरीयेन भूकम्पेन 95 जनाः मृत्युम् उपगताः, तत्रैव 30 जनाः व्रणिताः अभवन्। अस्य भूकम्पस्य केन्द्रं नेपाल सिम्नः समीपे तिब्बतस्य शिजांग स्थलम् आसीत्, येन हि बिहार, पश्चिमबंगाल, सिक्किम राज्यानि समेत्य उत्तरभारतस्य अनेकेषु भागेषु कम्पनं जनैः अनुभूतम्। असम प्रशासनेन दीमा हसाव जनपदस्य उमरांगसो नगरस्य कृष्णांगाराकरे अवरुद्धानां खनित्रीणां सहायतायै नौसैन्यबलस्य गाहित्रीन् तत्र नियोजयितुं सम्प्रार्थिताः। 300 फुट परिमिते जलप्लाविते रेड होल इत्यत्र कृष्णांगार आकरे एते खनितारः अवरुद्धा सन्ति इति सूच्यते। सेनया राज्यापदमोचनबल राष्ट्रियापदमोचनबलाभ्यां सह संयुक्तरूपेण सहायोद्धार कार्याणि समारब्धानि। केन्द्र स्वास्थ्य सचिव पुण्यसलिला श्रीवास्तव इत्येषा कथितवती यत् ह्यूमन मेटान्यूमो वायरस HMPV इत्येतत् संक्रमणं जनानां कृते चिन्तायाः कारणं नास्ति। राज्यैः केन्द्रशासित प्रदेशैः च सह दृश्य श्रव्य परान्तर्जालीयोपवेशने स्वास्थ्य सचिव भारते श्वसन रोगाणां प्रवर्तमान स्थितिं HMPV प्रकरणानां स्थितिं च प्रबन्धयितुं सार्वजनिक स्वास्थ्योपायाञ्च समीक्षितवती। एषा राज्यानि इन्फ्लुएंजा सदृशस्य रोगस्य तीव्रश्वसन संक्रमणस्य च निरीक्षणं सुदृढ समीक्षां च कर्तुं संसूचितवती। अनया एतदपि कथितं यत् सामान्यतया शीतमासेषु श्वसन रोगाणां वृद्धिः दृश्यते, तथा च आश्वासितं यत् श्वसन रोगस्य कस्यैचिदपि संभाव्य वृद्धये देशः सुसज्जो अस्ति। अत्रान्तरे पश्चिमीय महाराष्ट्रे नागपुरे च HMPV इत्येतस्य द्वे प्रकरणे समंकिते। द्वयोः प्रकरणयोः 7-वर्षीयः 13-वर्षीयः च बालकौ सम्मिलितौ। केन्द्र प्रशासनेन राज्यानि केन्द्रशासित प्रदेशाः च 23,000 भारतीय नागरिक सुरक्षा संहितायाः 79,400 परिच्छेदस्य उपबन्धानां प्रवर्तनाय निर्दिष्टम्, येन निगडितेभ्यः जनेभ्यः साहाय्यं मिलिष्यति। अयं प्रभागः अन्वीक्षणार्थं प्रतीक्षमाणानां कारागारवासीनां संख्यां न्यूनीकृत्य निगडितेभ्यः जनेभ्यः साहाय्यं प्रददाति। केन्द्रीय गृहमन्त्रालयः अस्मिन् विषये समेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्यसचिवान् उद्दिश्य पत्रमेकम् अलिखत्। वायुसेनाध्यक्षः एयर चीफ मार्शल एपी सिंहः अत्याधुनिक स्वदेशिक प्रौद्योगिकीनां विकासाय विनिर्माण क्षमतानां निर्माणाय च बलं प्रदत्तवान्। असौ अवदत् यत् 47,000 वर्षे विकसित भारतस्य लक्ष्यं साधयितुं रक्षाक्षेत्रस्य एरोस्पेस इत्येतस्य क्षेत्रस्य च प्रमुख योगदानं भविष्यति। दिल्ल्याः कृषकाः अद्य नवदिल्ल्यां केन्द्रीय कृषि कृषक कल्याण मन्त्रिणा शिवराज सिंह चौहानेन सह मेलनं कृतवन्तः। तदनु श्रीचौहानेन वार्ताहरैः सह सम्भाषयता उक्तं यत् केन्द्रप्रशासनस्य विभिन्नानां योजनानां लाभः राष्ट्रियराजधान्याः कृषकाः नैव प्राप्नुवन्ति। तावत् एतस्मिन् सन्दर्भे दिल्ल्याः मुख्यमन्त्रिणम् आतिशी इत्येतां प्रति एकं पत्रं विलिखितमस्ति। भारतीय ऋतुविज्ञान विभागेन हिमाचलप्रदेश और पश्चिम राजस्थानयोः अनेकेषु भागेषु शीतलहरी अनुमानिता इति वार्ताः।